अस्तु, वयं तु उद्देश उद्देशभागे स्मः. उद्देशभागः इति किम् इति सर्वे जानन्ति इति मन्ये. उद्देशक्रम उद्देशभागः इत्युक्ते यस्मिन् पदार्थानां सूचिः भवति, केवलं तेषां सूचिः, ते के इत्यस्य विवरणम् एव. उद्देशक्रमानुसारेण द्रव्यादारभ्य गुणः, कर्म, सामान्यं, विशेषः, समवायः, अभावः च लक्षिताः. अभावः इति अस्माकं सप्तमः पदार्थः नास्ति इत्यस्य सूचनं करोति. घटः अस्ति इति एका अवस्था, घटः नास्ति इति अपरा अवस्था. घटः नास्ति इत्येव घटस्य अभावः इति न्यायभाषया विव्रियते. अस्तु, तर्हि अभावः इत्युक्ते पदार्थस्य अविद्यमानत्वम् इति. तर्हि अभावः कीदृशः अस्ति? तस्मात् प्राक् अन्य केनापि आगतं वा? हरि ओम्
भगिनी, अद्य 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 कम्बैन्ड् वर्गः वा?
न न भगिनी, पृथक् एव.
रक्षा भगिनी समीपे ईमेल् न आगच्छति.
एवम्?
हा,
परन्तु सा अवश्यं भवेत् तस्याः वर्गे. प्रयत्नं करोतु भगिनी, नो चेत् तत्र आगच्छतु, परन्तु अवश्यं सा भवति एव.
इतः पर्यन्तं कोजनीय अहं कोजनीयं, परन्तु ईमेल् न आगच्छति.
न, परन्तु भवती तत्र करेक्ट् कर्तुं प्रयत्नं कृतवती वा?
मोबैल् मध्ये प्रयत्नं कृतवती, अहं ईमेल् मध्ये अपि अपि.
अस्तु भगिनी, तर्हि प्रयत्नं करोतु पुनः एकवारं, नो चेत् अत्र पृच्छतु.
धन्यवादः.
अभावः इति अस्माकं विषयः. अस्तु भगिनि, अहम् अत्र वर्गस्य अनुवर्तनं करोमि. कृपया, अभावः कीदृशः इत्युक्ते, गतवासरे, गतसप्ताहे, गतसप्ताहे इत्युक्ते यदा अहम् आसम् वर्गे, नकुलसर्पयोः मध्ये यः विरोधः, एतौ द्वौ एकदा मिलित्वा उपस्थितौ इति भवति. एकदा इत्युक्ते एकस्मिन् क्षणे नकुलसर्पयोः विद्यमानत्वं भवति एव, परन्तु अपरस्मिन् क्षणे सर्पस्य नाशः जातः. एतादृशविरोधः वध्यघातकभावः इति उच्यते. येन वध्यः घातकयोः उपस्थितिः एकस्मिन् क्षणे भवति, परन्तु अभावः तादृशः न. अभावस्य प्रसङ्गः तु प्रसङ्गे तु तादृशः विरोधभावः न. घटः अस्ति चेत् घटाभावः नितरां नास्ति. अयं विरोधः सः अनवस्थानरूपः इति. सः अनवस्थानरूपः इत्युक्ते सर्पनकुलयोः मिलित्वा उपस्थितिः इति भवति, परन्तु घटः घटाभावः एतयोः मिलित्वा उपस्थितिः न भवति एव. प्रतियोगिता अनियोगिता इत्यनयोः परिचयः अपि जातः. अभावस्य प्रसङ्गे यत् अस्ति तस्मिन् प्रतियोगिता अस्ति, अभावं प्रति. अभावे अनुयोगिता अस्ति, घटं प्रति. प्रतियोगिता अनुयोगिता विरोधिनौ, अपि तु साकाङ्क्षकौ. इति वयं दृष्टवन्तः. एतावत्पर्यन्तं सन्देहः अस्ति चेत् कृपया पृच्छन्तु, अग्रे पठेम. अभावः इत्युक्ते किम्? अपि तु अनियोगिता प्रतियोगिता कौ इति ज्ञातं वा भवद्भिः?
आं भगिनि.
उत्तमम्, अस्तु.
अनियोजिता प्रतियोगिता पुनः एकवारं विवरणं करोतु भगिनि.
अवश्यम् अवश्यम्. अस्तु, इदानीं घटः घटाभावः तौ द्वौ तौ द्वौ स्तः. घटे यः विरोधभावः अस्ति सा प्रतियोगिता. घटे यः विरोधभावः अस्ति स च विरोधभावः कं प्रति अस्ति? घटाभावं प्रति अस्ति खलु. इत्युक्ते घटः किं सूचयति? घटस्य अभावः नास्ति इति सूचयति खलु. प्रिय भगिनि,
आं भगिनि, आम्.
आम्, अतः घटः घटाभावः तौ विपरीतौ खलु.
आम् आम् आम्.
घटः अस्ति चेत् घटाभावः नास्ति, घटाभावः अस्ति चेत् घटः नास्ति इति स्थितिः. अतः घटः घटाभावः तौ द्वौ विरोधपदार्थौ इति उच्यते. अस्तु, विरोधपदार्थौ इत्युक्ते किं? कश्चन विरोधभावः अस्ति इति चिन्तयतु. तर्हि घटे कीदृशविरोधभावः अस्ति? प्रतियोगिता नाम्ना विरोधभावः अस्ति घटे. प्रतियोगिता नाम्ना विरोधभावः. तर्हि स च विरोधभावः कं प्रति अस्ति? घटाभावं प्रति प्रतियोगिता अस्ति. तर्हि घटाभावे अपि कश्चन विरोधभावः भवेत्, तस्य नाम अस्ति अनुयोगिता. सा अनुयोगिता कं प्रति अस्ति? तादृशविरोधभावः घटं प्रति अस्ति. इदानीं स्पष्टं वा?
आम्, परन्तु घटाभावः अनुयोगिता, अनन्तरं घटः एव प्रतियोगिता, किमर्थं तत्
किमर्थं तादृशसंज्ञा इति प्रश्नः वा?
अस्तु अस्तु.
प्रथमं तु घटः प्रतियोगिता इति न, घटे प्रतियोगिता अस्ति. इत्युक्ते घटः प्रतियोगी. घटः किं विरोधयति? घटाभावं विरोधयति खलु. अतः एव घटः प्रतियोगी. प्रतियोगी इत्युक्ते ओपोनेंट् खलु आङ्ग्लभाषायां. प्रतियोगी इत्युक्ते ओपोनेंट्, एनिमि इति. स्पर्धा अस्ति चेत् भारतदेशस्य प्रतियोगी कः इति उच्यते खलु. तादृश. अतः घटः प्रतियोगी, तर्हि घटाभावः अनुयोगी. घटः प्रतियोगी चेत् घटे प्रतियोगिता, घटाभावः अनुयोगी चेत् घटाभावे अनुयोगिता. स्पष्टम्?
आं भगिनि.
इदानीं स्पष्टं खलु?
आं भगिनि.
उत्तमम्, अस्तु अस्तु. तर्हि प्रिया भगिनि, भवती एव पठतु. पृष्ठसङ्ख्या अस्ति अष्टादश.
आं भगिनि.
तत्र किञ्चित् चित्रस्य निरूपणं करोति वा?
आं, प्रयत्नं करोमि भगिनि.
आम् आम्.
किं चित्रस्य? प्रथमं वा?
चित्रसङ्ख्या अस्ति 23 इति. 23 इति. तत्र प्रतियोग्य अनुयोगिभावनिरूपणम् इति अस्ति खलु. अधोभागे अस्ति कोष्टकम्.
अस्तु भगिनि. घटनिष्ठ प्रतियोगिता निरूपित अनुयोगिताश्रय अनुयोगिताश्रयः अभावः
स समीचीनं, बहु समीचीनम्. पुनः घटः कीदृशः इति पृष्टे सति.
घटः प्रतियोगिता.
घटः कीदृशः इत्युक्ते अभावात् आरभ्य निरूपयतु भगिनि.
अस्तु अभावः अनुयोगिता निरूपित.
एकनिमिषं, न श्रुतम्. अभाव
अभावनिष्ठ अनुयोगिता निरूपित प्रतियोगिताश्रयः घटः.
बहु समीचीनम्. अस्तु अग्रे.
अग्रिमवाक्यं पठनीयं वा?
न न, अग्रिमचित्रं ओ तत्तु अभवत् खलु. अस्तु, विपरीतरीत्या अपि अपि दृष्टं. तर्हि वाक्यं पठतु भगिनि एकवारं.
घटनिष्ठप्रतियोगिता निरूपित अनुयोगिताश्रयः अभावः. अभावनिष्ठ अनुयोगिता निरूपित प्रतियोगिताश्रयः घटः इति वाक्यम्. अयमेव सङ्ग्रहे वक्ष्यमाणेषु अभावेषु अत्यन्ताभावः इति निर्दिष्टः.
अयम् अभावः यः दृष्टः अस्माभिः, तस्य नाम अस्ति अत्यन्ताभावः. इत्युक्ते अत्यन्ताभावः अस्ति इत्युक्ते तस्य अन्तः एव नास्ति इति. इत्युक्ते घटः अस्ति चेत् अवश्यं सर्वदा घटाभावः नास्ति. घटाभावः अस्ति चेत् सर्वदा घटः नास्ति इति स्थितिः. अस्तु, अन्य केनापि आगतं वा? अनोनिमस् इति दृश्यते तस्य.
विजि गोविन्दरस्य.
हा भगिनि,
नमस्कारः.
नमस्कारः
भगिनि. पुष्पा भगिनी अस्मि.
अस्तु भगिनि, नमस्कारः. अस्तु, अग्रे सरेम. तर्हि सीमा भगिनी पठति वा?
आं भगिनि. सामान्यभाववर्णनम्. इदानीं तस्य सामान्यभावः इति प्रकारः निरूप्यते. प्रतियोगिताभावपदार्थे घटादौ विद्यमानः विरोधः इति निरूपितम्. सा प्रतियोगिता यदा एकजातियुक्तेषु सजातीयेषु यावत्सु भवति तदा सः सामान्यभावः इत्युच्यते. सामान्यस्य अभावः इति यथा श्रुते तु अयं जातेः अभावः स्यात्. कुतः सामान्यं नाम प्राग् उक्तरीत्या जातिः. तस्याः अभावः इति यदि अर्थः स्यात् तदा घटसामान्यभावः इत्यस्य घटस्य यत् सामान्यं घटत्वं तस्य अभावः इत्यर्थः स्यात्. नायं विवक्षितः किन्तु सर्वस्य घटस्य अभावः. घटसामान्यं यत् घटत्वं तद्वान् सर्वः अपि घटः. तस्याभावः अयं को अर्थः? सर्वः अपि घटः अस्य विरोधी. येन केनापि घटेन घटसामान्याभावस्य अपसारणं कर्तुं शक्यम्. अत्र इदं समीचीनम् उदाहरणं पश्यामः.
अस्तु. अनेन किमपि अवगतं वा भगिनि, सीमा भगिनि?
किञ्चित् अवगच्छामि.
यत् अवगतं वदतु भगिनि, परन्तु प्रथमम् उदाहरणं दृष्ट्वा पुनः अयं परिचयः पठामः. परन्तु यत् यत् अवगच्छति तर्हि तद् वदतु भगिनि.
ओके. सामान्यभावः अभावस्य प्रकारः अस्ति. तस्मिन् अभावे एकजातिषु सजातीयपदार्थानां अभावः तेन उच्यते.
समीचीनं. तावदेव तावदेव. अस्तु, इतोपि उदाहरणेन विस्तृतरीत्या अवगच्छामः. केवलम् अभावस्य प्रकारत्रयम् अस्ति, भेदत्रयम् अस्ति. तत्र प्रथमं तु सामान्याभावः, द्वितीयं विशेषाभावः, तृतीयमस्ति विशेषविशेषाभावः इति प्रकारत्रयम् अस्ति. तेषु सामान्याभावः इति प्रथमप्रकारकः, तस्य पठनं वयं कुर्मः. अस्तु, विजि भगिनी पठति वा कुतश्चित् इति आरभ्य? विजि भगिनी अस्ति खलु? विधि भगिनी अस्तु. पुष्पा भगिनी कृपया.
कुतश्चित् कारणात् मत्स्यस्य जलस्य च वियोगः जातः. सः मत्स्यः त्रस्यति लुटति च. कुतः सः जलम् अपेक्षते. अर्थात् सः जलाभावं पश्यति, अनुभवति. कीदृशजलाभावम्? जलसामान्य अभावम्.
तावत्पर्यन्तं भगिनि.
कुतश्चित् कारणात् मत्स्यस्य जलस्य च वियोगः जातः. तत्तु मत्स्य तु जलस्य सेपरेशन् जलात् बहिः आगतः. तत्तु त्रस्यति. हां, त्रस्यति तु शेक् न
कम्पनं.
लुटति तत् अर्थं न जानामि. लुटति
इत्युक्ते जम्पर् आन् फ्लटर् इति.
कम्पनं दृश्यते. ओके, कुतः? सः जलम् अपेक्षते. मत्स्य तु जलम् अपेक्षे एव अस्ति. अर्थात् जलभावः तथैव जलभावम् अनुभवति मत्स्यः अनुभवति. कीदृशजलाभावं? जलसामान्य अभावम्
इत्युक्ते किम् अवगच्छति? जलसामान्याभावम् इत्युक्ते किम्?
तत्तु जलसामान्यभावम् इत्युक्ते
अस्तु, इदानीं मत्स्यस्य कष्टः कः?
मत्स्य तु जले अस्ति, जले तिष्ठति न.
परन्तु इदानीं कीदृशः कष्टः अनुभवति?
त्रस्यति, लुटति.
कीदृश
अभावः?
कस्य? मम अभावः वा भवत्याः अभावः वा?
जलस्य अभावः
खलु. जलः न जलं नास्ति इत्यनेन तस्य कष्टः जायते. तस्य नाम एव जलाभावः इति. अतः मत्स्यः जलाभावम् अनुभवति, जलस्य अभावम् अनुभवति. जले अस्ति चेत् कोऽपि समस्या न, परन्तु इदानीं जलं नास्ति वा जलात् बहिः अस्ति इति कृत्वा तस्य जलस्य अपेक्षा भवति. अस्तु, इदानीं जलसामान्य अभावम् इत्युक्ते यदि भवती मत्स्यं मत्स्याय जलं ददाति चेत् किं भवति? भवती मत्स्यं स्वीकृत्य एकस्मिन् कूप्यां स्थापयति चेत् किं भवति?
तत्तु मत्स्याः जीवति.
समीचीनं, पुनः जीवति खलु, तस्य सः तुष्यति. परन्तु अभावः अनया भाषया कथं वदति? अभावः इतोपि अनुभवति वा, अनुभवं करोति वा? हा, इत्युक्ते जलस्य आनयनेन जलाभावं गच्छति खलु वा, अपगच्छति. जलस्य आनयनेन जलाभावं ग्लायते वा अपगच्छति. यत्किमपि जलं भवतु, कूपीजलं वा समुद्रजलं वा किं तडागजलं, यत्किमपि जलं भवतु, मत्स्यस्य मत्स्यः जीवति खलु. केवलम् न, समुद्रजलमेव अपेक्षते इति स्थितिः न. यत्किमपि जलं भवतु, मत्स्यं स्वीकृत्य भवती स्वीयं गृहं नीत्वा तत्र कस्मिंश्चित् किं पात्रे स्थापयति, जले स्थापयति चेत् अपि मत्स्यः जीवति एव. अतः अत्र सामान्यं जलमेव अपेक्षते मत्स्यः. अतः येन केनापि जलस्य आनयनेन तस्य पुनर्जीवनं भवति खलु. तदेव जलसामान्याभावम् इत्युक्ते यः अभावः स च मत्स्यः अनुभवति तस्य नाम अस्ति जलसामान्याभावः इति. अस्तु,
कोऽपि जल अस्ति चेत्
सम्यक् भवति. समीचीनं. विजि भगिनी अस्ति वा इदानीं? विजि भगिनी
नास्ति इति.
अस्तु अस्तु, प्रिया भगिनी कृपया.
किमपि जलं, किमपि जलं
मत्स्येनानुभूयमानं
अनुभूयमानं जलाभावं वारयितुं प्रभवति. कश्चित् तस्मै नदीजलं दद्यात्, कश्चित् तडागजलं दद्यात्, कश्चित् कूपजलमपि दद्यात्. यत्किञ्चित् जलं तदभावस्य विरोधि. विरोधरूपा प्रतियोगिता नदीजले, तडागजले, कूपजले, अन्यस्मिन् सर्वस्मिन्नपि वर्तते. अतः अयं जलसामान्याभावः वक्ष्यमाणाभावयोः एवंविध प्रतियोगिता न भवति इति विशेषः.
तत्तु त्यजतु इदानीं. परन्तु तावत्पर्यन्तम् अयं जलसामान्यभावः तावत्पर्यन्तं किञ्चित् प्रतिपादयतु भगिनि.
अत्र मत्स्यः जलस्य वियोगः भवति, तत्समये कोऽपि किमपि जलं ददति चेत् अपि तस्य पुनर्जीवनं भवति. जलम् एव जल अभावस्य विरोधी भवति, तत् एव तज्जलं प्रति इति
समीचीनम्
उक्तवन्तः.
पुनः वदतु भगिनि, तत् तदेव मुख्य अंशः अत्र.
जल अभावकारणेन मत्स्यः न जीवति. तत् समये किमपि जलं ददाति चेत् अपि, तत् तडागजलं वा कूपजलं वा नदीजलं वा किमपि जलं ददाति चेत् तत् जलं जल अभावस्य विरोधी भवति,
तत्
जले प्रतियोगिता भवति.
बहु समीचीनम्. इत्युक्ते कस्मिन् जले प्रतियोगिता अस्ति?
किमपि जले, नदीजले वा तडागजले वा कूपजले वा समुद्रजले वा प्रतियोगिता अस्ति.
समीचीनम्. तर्हि प्रतियोगी कः वा प्रतियोगी किम्?
जलम्,
सामान्यजलं
सामान्यजलं
सामान्यं जलम् इत्युक्ते यत्किमपि जलं प्रतियोगी भवति. प्रतियोगी इति तत्र ह्रस्व इकारः, यतोहि नपुंसकलिङ्गपदम् अस्ति खलु जलम् इति. समीचीनम्. अतः यदा प्रियभगिन्या उक्तं नदीजले तडागजले वा कूपजले प्रतियोगिता भवति, सम्प्रति प्रतियोगिता जलाभावम् यः मत्स्येन अनुभूयमानः जलाभावं प्रति प्रतियोगिता नदीजले वा तडागजले वा कूपजले अस्ति. स्पष्टं? तर्हि अनुयोगी किम्?
जलसामान्यभावम्.
समीचीनम्. जलसामान्यभावमेव अनुयोगी. तर्हि अनुयोगिता कुत्र?
जलाभावं.
जलाभावे अनुयोगी. भावे
अनुयोगिता.
समीचीनम्. इदानीं भवती यथा पूर्वस्मिन् कोष्टकं दृष्ट्वा निरूपणवाक्यम् उक्तवती, तादृशनिरूपणं वाक्यं वक्तुं प्रयत्नं करोति वा?
आं भगिनि. जलं प्रतियोगितं वा?
प्रतियोगिता कुत्र कुत्र अस्ति प्रतियोगिता?
जले अस्ति.
जले अस्ति. तर्हि सामान्यं सामान्यजलं खलु?
परन्तु जलं नपुंसकलिङ्गमस्ति खलु?
तर्हि सामान्यजले निष्ठ
सामान्यजले निष्ठ प्रतियोगिता निरूपित अनुयोगिताश्रयः जलाभावः.
समीचीनं. जलसामान्याभावः.
जलसामान्याभावः
तावदेव. स्पष्टम्?
आम् अस्तु भगिनि.
प्रश्न अस्ति वा एतावत्पर्यन्तम्?
मह्यं नास्ति.
अस्तु, उत्तमं. तर्हि प्रिया सीमा भगिनी, इदानीं प्रथमपरिच्छेदं पुनः पठित्वा किञ्चित् प्रतिपादयतु भगिनि.
ओके. इदानीं तस्य सामान्यभावः इति प्रकारः निरूप्यते. प्रतियोगिताभावपदार्थे घटादौ विद्यमानः विरोधः इति निरूपितं. घटादौ विद्यमानः यः विरोधः अस्ति तस्य नाम प्रतियोगिता अस्ति, तत् निरूपितं तस्य निरूपणम् अभवत्। सा प्रतियोगिता यदा एकजातियुक्तेषु सजातीयेषु यावत्सु भवति तदा सः सामान्यभावः इत्युच्यते। सा प्रतियोगिता यदा एकजातीयव्यक्तिषु यदा सा प्रतियोगिता वर्तते तस्य नाम सामान्यभावः इत्युच्यते। न तस्य नाम न तदा सः सामान्यभावः अस्ति इत्युच्यते।
इदानीं यत् उदाहरणं दृष्टम् अस्माभिः, तस्मात् उदाहरणात् जाति इत्युक्ते किम् इति वदतु भगिनि। एकजातियुक्तेषु सजातीयेषु इति तत्सर्वं वदतु कृपया।
ओके, जलत्वम् अस्ति जाति, सजातीय जलम् इत्युक्ते नदीजलं, तडागजलं, कूपजलम् इत्यादि। यस्मिन् जलकम् अस्ति ते सर्वे पदार्थाः सजातीयाः इत्युक्ते।
समीचीनं, बहु समीचीनम्।
सामान्यस्य अभावः इति यथाश्रुते तु अयं जातेः अभावः स्यात्। कुतः सामान्यं नाम प्राग् उक्तरीत्या जातिः। सामान्य अभावः शब्दशः यदि तस्य अर्थं कुर्मः चेत् तस्य तात्पर्यं जातेः अभावः स्यात्। किन्तु तस्याः अभावः यदि अर्थः स्यात् तदा घटसामान्यभावः इत्यस्य घटस्य यत् सामान्यं घटत्वं तस्य अभावः इत्यर्थः स्यात्। यदि सामान्यस्य सामान्यभावः अर्थस्य जातेः अभावः कुर्मः चेत् तर्हि घटस्य यत् सामान्यमस्ति तद् घटत्वं घटत्वस्य अभावः इत्यर्थः भवेत्। किन्तु
इति प्रतिभाति खलु,
इति प्रतिभाति, किन्तु तस्य विवक्षा नास्ति अत्र, न विवक्षितः। किन्तु सर्वस्य घटस्य अभावः विवक्षितः इत्युक्ते पदार्थानां यस्मिन् तत् सामान्यम् अस्ति तेषां पदार्थानाम् अभावः अत्र विवक्षितः अस्ति।
समीचीनं,
घटसामान्यं यत् घटत्वं तद्वान् सर्वः अपि घटः, सर्वेषु घटेषु घटसामान्यम् अर्थात् घटत्वम् अस्ति, तस्य अभावः अयम्। सामान्यभावः तेषां घटानाम् अभावः अस्ति। को अर्थः? सर्वेपि घटः अस्य विरोधी। सर्वेषु घटेषु सामान्यभावस्य विरोधः अस्ति।
समीचीनं,
येन केनापि घटेन घटसामान्यभावस्य अपसारणं कर्तुं शक्यम्। येन केनापि घटेन इत्युक्ते पूर्वं वयं यथा दृष्टवन्तः तडागजलः, जलं, नदीजलं, कूपजलं, सर्वे जलसामान्यभावस्य अपसर्पणं कर्तुं शक्नोति। अतः तदभवत्
समीचीनम्. अतः परिच्छेदस्य सारांशः अयं यत्
यत् यत् सर्वे सजातीयपदार्थेषु विद्यमानः अभावः सामान्याभावः इति वक्तुं शक्नुमः.
सजातीयपदार्थेषु विद्यमानः
अभावः
अभावः वा जलं कूपजलं वा नदीजलं वा तडागजलं तेषु अभावः वर्तते वा?
ओ न न क्षम्यतां. सजातिः पदार्थेषु यः अभावस्य न यः विरोधः न जानामि.
न भवती जानाति एव किञ्चित् मन्दं मन्दं
प्रतिपादनं क्लिष्टमस्ति इदानीं.
न भगिनी सुलभः एव. इत्युक्ते सजातीयपदार्थेषु यः या प्रतियोगिता अस्ति वा यः विरोधभावः अस्ति स च विरोधभावः वा सा प्रतियोगिता अभावं सामान्याभावं प्रति अस्ति तावदेव.
ओके एकवारं वदामि. सजातीयपदार्थेषु या विरोधः यः विरोधः या प्रतियोगिता अस्ति सा प्रतियोगिता सामान्यभावं
सूचयति इति वदतु.
सूचयति
सा
प्रतियोगिता सामान्यभावं सूचयति.
समीचीनम्. अतः अत्र सामान्यभावम् इत्युक्ते सामान्यभावः इत्युक्ते जातेः अभावः इति अर्थः न, परन्तु पदार्थस्य अभावः सामान्यपदार्थस्य अभावः इत्येव अर्थः. यथा सामान्यजलस्य अभावः तादृशं. स्पष्टं?
स्पष्टमस्ति.
उत्तमं. प्रश्नः अस्ति वा? न. अस्तु अग्रे विजी भगिनी नास्ति, पुष्पा भगिनी न जाने किम् अभवत् विजी भगिनी. अस्तु पुष्पा भगिनी.
अस्मि भगिनि. विशेषाभावः तत्र द्वितीयाभावः विशेषाभावः तत्र चातकपक्षिणां सम्प्रदाये उदाहरन्ति. स तु पक्षी वृष्टिकाले वृक्षस्य
शाखायां
उपविश्य शिरः उन्नमय्य मेघं पश्यन् वृष्टिम्
अभिवाञ्छति
अभिवाञ्छति वृष्टिम् अभिवाञ्छति. कुतः? सः अपि जलभावं पश्यति. किं तेन दृश्यमानः अभावः नदीजलेन कूपजलेन वा वारयितुं शक्यः न एव. कश्चित् कूपजलम् आदाय तस्मै यच्छति चेत् न सः तुष्यति. अतः अयं जलविशेषभावः जलविशेषस्य अभावः.
तावत्पर्यन्तं भगिनि.
अत्र द्वितीय अभावः विशेष अभावः इति सूच्यते. चातकपक्षी सम्प्रदाये एतत् करोति. स तु पक्षी वृष्टिकाले वृक्षस्य उच्चतम शाखायां उपविश्य शिरम् उन्नमयं तत्तु मेघं
दृष्ट्वा
वृष्टिं
प्रतीक्षते खलु
प्रतीक्षते तथैव प्रतीक्षति
तत्तु
प्रतीक्षते आत्मनेपदी प्रतीक्षते कुतः इति प्रश्नः उदेति अत्र अस्ति अत्र तु जलभावः जलभावं अनुभवति पश्यति अनुभवति तत्र तेन तत्तु पक्षिणं न तेन इत्युक्ते चातकपक्षिणां अभाव
अनुभूयमानः
नदीजले या कूपजले ये सर्वे निवारयितुं शक्य किम् इति प्रश्नः उदेति तत्तु नास्ति कश्चित् कूपजलम् आदाय तस्मै यच्छति चेत् तत्तु सः तुष्यति तत् अत्र कोऽपि कूपजलं आनयते चेत् तत्र चातकपक्षिणः न तुष्यति
चातकपक्षी न तुष्यति
पक्षी न तुष्यति
किमर्थं
तत्तु वृष्टि परीक्षति प्रतीक्षति न तत्
समीचीनं
वृष्टिं प्रतीक्षति
वृष्टिजलम् एव
जलमेव
कामयति चातकपक्षी इत्युक्ते तेन साधारण वा सामान्यजलं न अपेक्ष्यते केवलं वृष्टिजलम् इति स्थितिः अतः कीदृश अभावः अनुभूयति चातकपक्षी
वृष्टिजल अभावम्
अनुभवति खलु
अनुभवति
किमर्थं वृष्टिजलाभाव इत्युक्ते कस्य आनयनेन वृष्टिजलाभावः यः अनुभूयमानः अस्ति चातकपक्षिणा कस्य आनयनेन निवार्यते
समीचीनं
वृष्टिजलस्य आनयनेन एव तम् अभावम् अपसर्तुं शक्नुमः खलु समीचीनं भगिनि अस्तु अग्रे प्रिया भगिनि
आं भगिनि अतः अयं जलविशेषाभावः जलविशेषस्य अभावः अस्य प्रतियोगिता सर्वस्मिन् जले न वर्तते किन्तु जलविशेषे किं तत् वृष्टिजलम् अतः तदेव तम् अभावं नाशयितुं प्रभवति तस्मात् वृष्टिजलं नास्ति इति अयं जलविशेषाभावः. आतकपक्षिः पक्षी वृष्टिजले एव पिबति, अन्य वृष्टिजलम् एव पिबति, अन्य किमपि जलं न पिबति, न अभिवाञ्छति. तत् कारणेन वृष्टिजलम् एव अभावः अस्ति, तद् एव विशेष अभावः इति उच्यते.
पुनः पुनः भगिनि अन्तिमं वाक्यं पुनः वदतु भगिनि.
वृष्टिजलस्य अभावम् एव अस्ति, तत् एव तत् जलस्य विशेष अभावः इति उच्यते.
समीचीनं.
वृष्टिजले इष्टप्रतियोगिता निरूपित अनुयोगिताश्रयः अभावः.
इत्युक्ते अत्र प्रतियोगी किम्?
वृष्टिजलं. वृष्टिजले
किमर्थं वृष्टिजलं प्रतियोगी?
चातकपक्षी वृष्टिजलम् एव पिबति, तत् कारणेन वृष्टिजलम् एवं प्रतियोगिता अस्ति. वृष्टिजले एव प्रतियोगिता अस्ति अन्य जलेन.
इत्युक्ते चातकपक्षी तु वृष्टिजलमेव अपेक्षते.
आम्.
अतः चातकपक्षिणा अनुभूयमानः अभावः कथं निवार्यते?
वृष्टिजलेन.
हा, अतः वृष्टिजले प्रतियोगिता अस्ति. इत्युक्ते वृष्टिजलमेव विरोधी अस्ति खलु? अभावं प्रति विरोधी अस्ति. हा, समीचीनं. तर्हि अनुयोगिता कुत्र?
वृष्टिजलस्य अभावः विशेष अभावः.
अभावे खलु अनुयोगिता?
अभावे. अभावे.
आम्. अत अपि तु अभावस्य नाम किम्?
विशेषाभावः.
विशेषाभावः इति इत्युक्ते येन केनापि जलस्य आनयनेन अयम् अभावः न निवार्यते इति कृत्वा विशेषतया
वृष्टिजलम्
वृष्टिजलमेव अपेक्षते चातकपक्षिणा इति कृत्वा तस्य अभावस्य नाम अस्ति विशेषाभावः इति. स्पष्टम्? अस्तु, अग्रे पठतु भगिनि.
विशेष विशेषाभाववर्णनं. इतोपि अन्यं विशेषविशेषाभावं सम्प्रदाये निरूपयन्ति, स च स्वातीनक्षत्रियवृष्टिजलाभावः. तथा हि सूर्यः प्रायः चतुर्दश वा पञ्चदश वा दिनानि एकैकस्मिन् नक्षत्रे तिष्ठति. तत्र मृगनक्षत्रम् आरभ्य हस्तनक्षत्रपर्यन्तं नवसु नक्षत्रेषु सूर्ये सति सार्धमासचतुष्ट्यं प्रचुरा वृष्टिः भवति. ततः चित्रास्वातीननक्षत्रयोः चित्रास्वातीनक्षत्रयोः किञ्चित् अधुना वृष्टिः भवति. अयं नक्षत्रकालः प्रायः कार्तिकमासे भवति. यदा स्वातीनक्षत्रीया वृष्टिः आसन्ना भवति तदा सागरे गभीरे जले स्थिता शुक्तिका जलोपरि समेत्य स्वातिनक्षत्रस्य वृष्टिजलं कामयते.
प्रतिपादयतु भगिनी, किञ्चित् वाक्यशः पठित्वा.
इदानीं विशेषविशेषाभावं निरूपयन्ति. स्वातिनक्षत्रीयवृष्टिजलाभावः. स्वातिनक्षत्रे वृष्टिजलस्य अभावः अस्ति इति उच्यते. तथा हि सूर्यः प्रायः चतुर्दश वा पञ्चदश वा दिनानि एकैकस्मिन् नक्षत्रे तिष्ठति. एकैकनक्षत्रे सूर्यः चतुर्दश वा पञ्चदशदिनानि तिष्ठति. तत्र मृगनक्षत्रम् आरभ्य हस्तनक्षत्रपर्यन्तं नवसु नक्षत्रेषु सूर्ये सति सार्धमासचतुष्ट्यम् अर्धमासचतुष्ट्यं प्रचुरा
फोर् अण्ड् हाफ् मन्त्स् इति अवधिः. इत्युक्ते मृगशीर्षनक्षत्रम् इति अस्ति खलु, तस्मात् आरभ्य हस्तनक्षपर्यन्तं
नक्षत्रेषु
सार्धमासचतुष्टयः भवति इति खलु. तस्मिन् तस्याम् अवधौ किं भवति? वृष्टिः भवति, प्रचुरा वृष्टिः इत्युक्ते भूयशः वृष्टिः भवति, सुभिक्षा वृष्टिः भवति तस्मिन् काले.
ततः चित्रा स्वातिनक्षत्रयोः किञ्चिदूना वृष्टिः भवति.
हस्तनक्षत्रस्य अनन्तरं चित्रनक्षत्रं, तदनन्तरं स्वातिनक्षत्रं.
तयोनक्षत्रयोः किञ्चिदेव वृष्टिः भवति. अयं
नक्षत्रे किम् स्वल्प एव यथा पादोन सप्तवादनम् इति उच्यते खलु,
सप्तदशवादन
6:45 इत्युक्ते तादृशम्.
अयं नक्षत्रकालः प्रायः कार्तिकमासे भवति. चित्रा स्वातिनक्षत्रः कार्तिकमासे भवति. तत् मासे ऊनावृष्टिः एव भवति. यदा स्वातिनक्षत्रीया वृष्टिः आसन्ना भवति तदा सागरे गभीरे जले स्थिता क्षुप्तिका जलोपरि समेत्य स्वातिनक्षत्रस्य वृष्टिजलं कामयते. यदा स्वातिनक्षत्रे वृष्टिः भवति चेत् आसन्ना इत्युक्ते
समीपस्था वृष्टिः इत्युक्ते वृष्टिः न जाता परन्तु तस्य प्रतीक्षा अस्ति. स्वातिनक्षत्रीय वृष्टिः अपि प्रतीक्षते इति अर्थः. आसन्ना इत्युक्ते इदानीं भविष्यति, शीघ्रमेव भविष्यति इति अर्थः.
तद् ऊनावृष्टि एव प्रतीक्षते वा?
आम्, इत्युक्ते यद्यपि भूयशा वृष्टिः जाता तथापि क्षुप्तिका स्वातिनक्षत्रीयवृष्टिजलम् एव अपेक्षते.
Oh.
यद्यपि न्यूनः वृष्टिः न्यूना वृष्टिः एव भवति स्वातिनक्षत्रीयकाले, तथापि शुक्तिकायाः कामना का स्वातिनक्षत्रीयवृष्टिजलमेव. इत्युक्ते किं करोति शुक्तिका स्वातिनक्षत्रीयकाले? प्रतीक्षां करोति शुक्तिका, स्वातिनक्षत्रीयवृष्टिजलं प्रतीक्षते. तत्र तदा सागरे गभीरे जले स्थिता, इत्युक्ते प्रचुरा वृष्टिः जाता, अतः तदा समुद्रजले स्थित्वा सा इदानीं स्वातिनक्षत्रीयवृष्टिजलम् अपेक्षते इति इत्येव सारांशः. प्रश्नः अस्ति वा एतावत्पर्यन्तं
भगिनि?
तदेव विशेषभावम् अस्ति वा?
हा, अग्रे अग्रे पठेम. हा, तदेव इत्युक्ते न तु सामान्यजलम् अपेक्षते, चातकपक्षीसदृशं वृष्टिजलमपि न अपेक्षते. इत्युक्ते हस्तनक्षत्रीयवृष्टिजलं वा मृगनक्षत्रीयवृष्टिजलं, तेन तस्य शुक्तिकायाः कामना न पूरयति खलु? केवलं स्वातिनक्षत्रीयवृष्टिजलेन एव शुक्तिकायाः अभावः निवार्यते. इत्युक्ते विशिष्टतया विशिष्टजलम् इत्युक्ते अहं केवलं मिष्टान्नं न अपेक्षे, किं क्षीरेण रचितं मिष्टान्नम् एव न अपेक्षते, परन्तु किं धेनुना, धेनु इत्युक्ते अस्माकं सम्प्रदाये अस्ति खलु, a cow that has given birth to a newborn calf, तेन किमपि मिष्टान्नं रचयन्ति खलु, भवन्तः जानन्ति
वा?
तादृशकामना, तादृशी कामना कीदृशी अस्ति?
विशेष,
बहु विशेषविशेषाभावं निवार्यते खलु, तादृशमेव. अस्तु, प्रश्नः अस्ति वा एतावत्पर्यन्तम्?
न भगिनि, सम्यक् अवगतम्.
अस्तु अस्तु,
मम एकः प्रश्नः
किम्? हा,
आम् आम्. शुक्तिका जलोपरि समेत्य, जलोपरि समेत्य इत्युक्ते किं भगिनि?
इत्युक्ते किं तस्य समेत्य इत्युक्ते दि आक्ट् आफ् मीटिङ्ग् इति.
ओके, थेङ्क् यु.
समैति इति पदमस्ति, समैति इति.
अस्तु, धन्यवादः.
समैति इति क्रियापदं, समेत्य इति ल्यप्रत्ययः, इत्युक्ते संयोगः जायते खलु, तदेव.
अस्तु,
अग्रे अग्रे पठेम वा? सीमा भगिनी कृपया. सीमा भगिनी,
ओ क्षम्यताम्, अहमेव पठामि. अस्तु, अर्थात् स्वातिनक्षत्रीयवृष्टिजलाभावं पश्यति, नायम् अभावः कूपजलेन नदीजलेन वा शक्यः निवारयितुं, नापि येन केनचित् वृष्टिजलेन. चित्रानक्षत्रीयवृष्टिजले जलसत्त्वेऽपि न हि शुक्तिः तत् गृह्णाति, केवलं स्वातिनक्षत्रीयवृष्टिजलं वाञ्छति. अतः अस्य अभावस्य प्रतियोगी न जलसामान्यं, नापि वृष्टिजलसामान्यम् अपि तु स्वातिनक्षत्रीयवृष्टिजलम् एव जलविशेषरूपवृष्टिजलस्यापि अयं विशेषः यत् स्वातिनक्षत्रीयवृष्टिजलं तस्य अयम् अभावः अतः विशेषविशेषाभावः इत्युच्यते एवं सर्वत्र पुष्पसामान्यभावः नीलपुष्पाभावः शरदकालिकनीलपुष्पाभावः इत्यादयः सामान्यभावः विशेषाभावाः विशेषविशेषाभावाः उदाहर्तव्याः.
इत्युक्ते तत्र किं भवत्याः प्रश्नः आसीत् समये किं सा शुक्तिका तु जलं न पिबति परन्तु यत्किमपि करोति स्वातिनक्षत्रीयजलेन एव किं मुक्तिका जायते मुक्तिकायाः निर्माणं भवति.
शुक्तिका स्वातिनक्षत्रीयजलम् एव इच्छति अतः यावत्पर्यन्तं तज्जलं नास्ति तस्य अभावं पश्यति सः अभावः अन्यजलेन अन्य किमपि जलेन कूपजलेन नदीजलेन निवारयितुं न शक्यम् न तद् सः अभावः किमपि वृष्टिजलेन निवारयितुम् अपि न शक्यम् यतः तत् जलं यदि स्वातिनक्षत्रीय अस्ति तर्हि एव शुक्तिकायाः वाञ्छा निवार्यते अतः सः अभावस्य प्रतियोगी न जलसामान्यं न जलविशेषविशेषम् अपि वृष्टिजलं किन्तु तस्य प्रतियोगी स्वातिनक्षत्रीयवृष्टिजलम् एव अतः स्वातिनक्षत्रीयवृष्टिजलं जलसामान्यं नास्ति.
एकनिमिषं पुनः वाक्यं पश्यतु भगिनि.
क्षम्यतां जलसामान्यम् अस्ति किन्तु स्वातिनक्षत्रीयवृष्टिजलं जलविशेषस्य विशेष्यात् अपि विशेषः अस्ति अतः तस्य अभावः विशेषविशेषाभावः इत्युच्यते.
समीचीनम्.
एवम् एव सर्वेषु पदार्थेषु अपि भवितुम् अर्हति यथा पुष्पस्य सामान्य अभावः पुष्पसामान्य अभावः अस्ति किन्तु कश्चन वर्णस्य पुष्पानाम् अभावः विशेषाभावः अस्ति यथा नीलपुष्पाभावः. यदि तत् सः पुष्पमस्ति तत् पुष्पं यदि कस्मिंश्चित् विशेषकाले अपि अस्ति तर्हि तस्य अभावः विशेषविशेषाभावः अस्ति यथा शरदकालिकनीलपुष्पाभावः. एव सामान्यभावः विशेषभावः विशेषविशेषभावः निरूपिताः.
बहु समीचीनम्. इदानीं विशेषविशेषभावस्य निरूपणवाक्यं किं भगिनि?
स्वाति नक्षत्रीयवृष्टि जलनिष्ठप्रतियोगिता निरूपित अनुयोगिता आश्रयः विशेषविशेषाभावः।
बहु समीचीनम्। अस्तु, एतावत्पर्यन्तं स्पष्टता अस्ति वा?
आम् अस्ति भगिनि।
प्रिया भगिनी, पुष्पा भगिनी,
स्पष्टमस्ति भगिनि?
उत्तमं। तर्हि कश्चन अभावः वर्तते, कीदृश अभावः इति प्रश्ने कृते का प्रक्रिया भवति, कोऽपि वदतु। एकनिमिषम्। यदि कश्चन अभावः वर्तते तर्हि कीदृश अभावः इति प्रश्ने कृते उत्तरं किम्?
सामान्य अभावः।
हा, परन्तु कथं वदामः तत्र कीदृश अभावः अस्ति इति अहं पृच्छामि चेत्,
यदि सजातीयेषु वस्तुषु सः अभावः अस्ति, तत् सामान्यभावः अस्ति। किन्तु सजातीय,
एकनिमिषं पुनः, सीमा भगिनी, सजातीयेषु वस्तुषु अभावः अस्ति इति वा?
सजातीयेषु वस्तुषु यः विरोधः अस्ति,
नो चेत् अन्यया रीत्या अपि वक्तुं शक्नुमः। इत्युक्ते इत्युक्ते स च अभावः कथं निवार्यते इति प्रश्ने कृते उत्तरं किम्?
तस्य जातीय कः अपि न केनपि वस्तुना अभावः निवार्यते,
केनपि वस्तुना इति न सजातीना वस्तुना, खलु?
सजातीयेषु ये सन्ति तेषां तेषु केनपि वस्तुना न जानामि।
भवती जानाति, तृतीया विभक्त्याः प्रयोगं कृत्वा वदतु भगिनि।
सजातीयेषु
सप्तमी इति न, तृतीय इत्युक्ते सामान्यजलेन अभावः निवार्यते तादृशम्।
सामान्य वस्तुना यः अभावः निवारितुं शक्यं सः अभावः सामान्यभावः।
समीचीनम्। तर्हि विशेषाभावः, प्रिया भगिनी, कदा विशेषाभावः भवति?
यत् विशेषपदार्थम् इच्छति तस्य अभावः अस्ति चेत् विशेषाभावः, तत्र सामान्यपदार्थेन न कामयते,
न निवार्यते,
न निवार्यते।
समीचीनं। पुष्पा भगिनी, विशेषविशेषाभावः?
शृणोति वा?
आम् आम्।
शृणोति, हा। विशेषभावः तत्तु स्वजाति कोऽपि न अपेक्षति. विशेषविशेषाभावः
विशिष्टपदार्थेषु विशेषेण अभावः यदा निवार्यते स च अभावः विशेषविशेषाभावः खलु. विशेषतया विशिष्टपदार्थेन इति
विशेषतया
विशिष्टपदार्थेन. अस्तु अस्तु अग्रे सरेम तर्हि. कस्य क्रमः? पुष्पा भगिन्याः इति मन्ये. अग्रे पठतु भगिनी कृपया.
अर्थात् स्वातिनक्षेत्र
न अवच्छेदक अग्रिम
अवच्छेदकत्वपदार्थवर्णनम् त्रयाणाम् एषां जलमेव प्रतियोगी तथापि जलनिष्ठप्रतियोगितानां परस्परं भेदः अनुभविकः आनुभविकः अन्यः खलु सर्वेषु जलेषु विद्यमानः सामान्याभावस्य विरोधः ततः अन्य एव वृष्टिजले विद्यमानः विरोधः तस्य च सम्यक् ज्ञानार्थम् अत्रैव च अवच्छेद्यावच्छेदक अभावम् अपि
अभावः इति न अवच्छेद्य
भावः
भावम्
अपि पश्यामः. अत्र त्रयाणां तत्तु सामान्य भावः विशेषभावः विशेषविशेषाभावः त्रयाणां ते नस्ते नहि ताः न ताः त्रयाणां त्रयाणां
किं किं वक्तुम् इच्छति
ते जलम् एव प्रतियोगी अस्ति तेषां
त्रिषु प्रसङ्गेषु
त्रिषु प्रसङ्गेषु
जलमेव प्रतियोगी
इति तथापि जलनिष्ठप्रतियोगितानां परस्परं भेदः आनुभविकः तत् अस्ति चेत् अपि जलनिष्ठप्रतियोगितानां तत् जलनिष्ठप्रतियोगितानां परस्परभेदः तत्तु सामान्यभावः विशेषभावः विशेषविशेषाभावः परस्परभेदः अनुभवति.
हा हा इत्युक्ते अयम् अभावः सामान्यभावः वा विशेषाभावः वा विशेषविशेषाभावः इति वयं वक्तुं शक्नुमः. परन्तु जले या प्रतियोगिता अस्ति सामान्यजले एकविधा प्रतियोगिता अस्ति वृष्टिजले एकविधा प्रतियोगिता स्वातिनक्षत्रीयवृष्टिजले अन्या विधा प्रतियोगिता खलु परन्तु एतासु प्रतियोगितासु भेदः कद किम् इति प्रश्ने कृते कथं ज्ञायते? सर्वेषु प्रतियोगिता अस्ति खलु वा सर्वासु प्रतियोगिता अस्ति खलु? क्षम्यतां, सर्वेषु एव इत्युक्ते सामान्यजले अपि तु वृष्टिजले अपि तु स्वातिनक्षत्रीयवृष्टिजले प्रतियोगिता अस्ति एव. परन्तु कथं भिद्यते, कथं भिद्यन्ते इति प्रश्नः. कथं ज्ञायते? क्षम्यतां मम कण्ठः सम्यक् नास्ति. अस्तु, तद् अवगमनार्थम् एकम् उपकरणं वयम् उपयुज्यामहे. उपकरणस्य नाम अस्ति अवच्छेद्य अवच्छेदकभावः इति. अग्रे पठेम किम् इति. अस्तु, प्रिया भगिनी.
कश्चित् क्षीरविक्रेता क्षीरम् आदाय आगतः. तस्मात् द्रोणपञ्चकपरिमितं क्षीरं क्रेतव्यम् अस्ति. कीदृशं पात्रं वयं नयामः? न द्रोणदशकमानकं कुतः अतिवर्तेत, नापि द्रोणद्वयम् आनकं कुतः न्यूनी भवेत्.
मानकम् इत्युक्ते मेजर् इति, मान इति.
किन्तु द्रोणपञ्चकपरिमितं क्षीरं स्थापयितुं यत् पात्रं पर्याप्तं भवेत् तदेव स्वीकुर्मः. ततः किं कुर्मः? विक्रेतुः समीपं गत्वा तस्य पुरतः पात्रं स्थापयामः. विक्रेता च पात्रे तस्मिन् क्षीरं श्रावयति. कश्चित् क्षीरविक्रेता क्षीरमादाय आगतः. तस्मात् द्रोणपञ्चकपरिमितं क्षीरं क्रेतव्यम् अस्ति.
सम्यक्तया पठतु भगिनि.
कश्चित् क्षीरविक्रेता क्षीरमादाय आगतः. तस्मात् द्रोणपञ्चकपरिमितं क्षीरं क्रेतव्यम् अस्ति. द्रोणपञ्चकं क्षीरम् एव
अपेक्षते.
अपेक्षते, अस्तु.
द्रोण इत्युक्ते किम्?
मेशर्मेण्ट् वा?
आम् आम्, तदेव.
ओके, तत्र पञ्चद्रोणमेव क्षीरम् अपेक्षते. अस्तु, कीदृशं पात्रं नयामः? पञ्च द्रोणं क्षीरं इच्छति चेत् वा? द्रोणदशकं न आवश्यकं, तद् नास्तु. द्रोणद्वयमपि न पर्याप्तं. द्रोणपञ्चकपरिमितं क्षीरं स्थापयितुं यत् पात्रं पर्याप्तं भवेत् तदेव स्वीकुर्मः.
समीचीनम्.
तदा किं कुर्मः? विक्रेतुः समीपं गत्वा तस्य पुरतः पात्रं स्थापयामः. यत् पात्रं द्रोणपञ्चकपरिमितं क्षीरं पर्याप्तं, तत् पात्रम् एव विक्रेतुः समीपे
पात्रे स्थापयामः, विक्रेता च पात्रे तस्मिन् क्षीरं स्रावयति.
तस्मिन् तत् पात्रे क्षीरं स्थापयति इति, श्रावयति इति. इत्युक्ते यत् यत् अस्माभिः अपेक्षते तादृशपरिमाणपात्रमेव वयम् आनयामः इति. अग्रे सीमा भगिनी.
आं भगिनि, इदानीं किं तेन योग्येन पात्रेण कृतं? द्रोणपञ्चकपरिमितं क्षीरं बृहत्पात्रगतक्षीरात् पृथक् कृतं. पात्रस्थं क्षीरं दृष्ट्वा एवम् अवगच्छामः, इदं क्षीरम् अन्यस्मात् क्षीरात् भिन्नं. केन एवम् अस्माभिः अवगतं? पात्रेण. तत् हि पृथक् करोति. इदं क्षीरम् अन्यत् इति बोधयति इति पात्रं क्षीरस्य अवच्छेदकं. क्षीरं च अवच्छेद्यं भवति. क्षीरे अवच्छेद्यता, पात्रे च अवच्छेदकता, तयोः निरूप्यनिरूपकभावः. योग्येन पात्रेण किं तेन किं कृतं? सः तत् पात्रं तत् पात्रम् अन्यपात्रगतक्षीरात् तत् पात्रस्य क्षीरं पृथक् करोति.
इत्युक्ते पात्रद्वयम् अस्ति भवत्याः पुरतः. एकं तु पञ्चद्रोणकपरिमितं पात्रम्, अपरं तु दशद्रोणकपरिमितं पात्रम्. इदानीं तयोः यत् क्षीरम् अस्ति कथं भिद्यते?
पात्रेण.
पात्रेण भिद्यते खलु? इत्युक्ते यस्मिन् पात्रे क्षीरम् अस्ति तेन पात्रेण एव तत्क्षीरं भिद्यते. वदतु भगिनि.
अतः पात्रे यदि यथा भवता उक्ता पात्रे यत् क्षीरम् अस्ति तद् दृष्ट्वा वयम् अवगन्तुं शक्नुमः इदं क्षीरम् अन्यस्मात् क्षीरात् भिन्नम् अस्ति. पात्रं क्षीरस्य पृथक्करणं करोति.
पृथक् करोति.
यत् पात्रं क्षीरस्य क्षीरं पृथक् करोति सः पात्रं क्षीरस्य अवच्छेदकम् अस्ति. तत् पात्रं क्षीरस्य अवच्छेदकम् अस्ति. यस्य यस्य क्षीरम् अवच्छेद्यं भवति. यस्य अवच्छेदकत्वं भवति. किं वक्तुं शक्नुमः?
अवच्छेदकता इति.
यस्य अवच्छेदकता
यस्मिन् अवच्छेदकता इति खलु? इत्युक्ते पात्रमेव अवच्छेदकं. किमर्थं? पात्रेण एव भेदः ज्ञायते. एतत्तु पञ्चद्रोणकपरिमितं क्षीरं, तत्तु दशद्रोणपरिमितं क्षीरम् इति पात्रेण एव अस्माभिः ज्ञायते. अतः पात्रम् एव अवच्छेदकं. पात्रम् अवच्छेदकं चेत् पात्रे किम् अस्ति?
क्षीरम् अस्ति. पात्रे अवच्छेदकता अस्ति.
अवच्छेदकता अस्ति. अवच्छेदकता इति कश्चन धर्मः. एतेन धर्मेण अवच्छेदककार्यं भवति यथा पात्रं पृथक् करोति. अस्तु, तर्हि क्षीरे किम् अस्ति?
अवच्छेद्यता.
अवच्छेद्यता किमर्थम्?
क्षीरम् अवच्छेद्यम् अस्ति अतः.
क्षीरम् अवच्छेद्यम् अस्ति अतः क्षीरे अवच्छेद्यता. किञ्चित् कोष्टकं विवृणोति वा?
पात्रे पात्रनिष्ठ अवच्छेदकता निरूपित अवच्छेद्यता आश्रयं क्षीरम्.
आश्रयः इति
क्षीरं
यद्यपि नपुंसकलिङ्गपदम्, आश्रयः इति नियतलिङ्गकं पदं. सर्वदा पुंसि एव.
ओके ओके ओके. पात्रनिष्ठ अवच्छेदकता निरूपित अवच्छेद्यता आश्रयः क्षीरम्.
अग्रे
अथवा क्षीरनिष्ठ अवच्छेद्यता निरूपित अवच्छेदकता आश्रयः पात्रम्.
समीचीनं. केवलम् उदाहरणरूपेण लौकिक उदाहरणम् अस्ति अयम् इदं. कथं विद्यते इति प्रश्ने कृते केनापि उपकरणेन एव भेदः इति स्थापयितुं शक्नुमः, भेदं स्थापयितुं शक्नुमः. अतः क्षीरस्य उदाहरणम् अस्ति. इत्युक्ते पात्रं स्वीकृत्य पात्रस्य परिमाणं दृष्ट्वा अयं क्षीरं भिन्नं तत् क्षीरं भिन्नम् इति वयं वक्तुं शक्नुमः. केवलं अवच्छेदकभावस्य परिचयः जातः अनेन.
किन्तु क्षम्यतां,
वदतु भगिनि.
किन्तु अभावस्य विषये
कथं प्रयुज्यामहे इति वा अग्रे पठेम आगामिसप्ताहे. केवलं एतत् वदामि यत् अस्माकम् उदाहरणेषु इत्युक्ते सामान्यभावः वा विशेषभावः वा विशेषविशेषभावः, एतेषु उदाहरणेषु प्रतियोगी किं? जलम् एव प्रतियोगी अस्ति खलु. वयं तु यदि अहं जानामि अयं विशिष्टं जलम्, अयं वृष्टिजलं वा अयं नदीजलम् इति अहं जानामि चेत् भेदः अयं भवति इति वयम् अहं वक्तुं शक्नोमि. परन्तु केवलम् आश्रयं दृष्ट्वा इत्युक्ते अधिकरणं दृष्ट्वा कथं, केवलम् अधिकरणं दृष्ट्वा वयं भेदः वक्तुं न शक्नुमः, भेदं न वक्तुं शक्नुमः. इत्युक्ते कश्चन धर्मः अस्ति आश्रये येन भेदः स्थापयितुं शक्नुमः. तस्य विवरणार्थमेव एतत् सर्वम्, अवच्छेदकता अवच्छेद्यता कुत्र भवति इति. इत्युक्ते आश्रये कश्चन धर्मः वर्तते येन भेदः ज्ञायते. इत्युक्ते धर्मः एव अवच्छेदककार्यं करोति इति. इत्युक्ते केवलं जलम् इति अहं वदामि चेत् प्रतियोगितासु भेदः कथं स्थापयितुं शक्नुमः? वृष्टिजलं वा स्वातिनक्षत्रीयवृष्टिजलं वा सामान्यजलं पुरतः अस्ति परन्तु
जलम् अस्ति चेत्
केवलं जलम् इति एव भवत्यः जानन्ति, न तु एतत् विशिष्टजलं वा सामान्यजलम् इत्यादयः. तर्हि केनचित् आधारेण अतः एव कश्चन धर्मस्य अपेक्षा भवेत्. इत्युक्ते सामान्यजले कीदृशधर्मः भवति? सामान्यजलत्वम् इति कश्चन धर्मः, वा वृष्टिजले वृष्टिजलत्वम् इति धर्मः खलु, यथा पुस्तकत्वं वा घटत्वम् इत्यादयः खलु. अतः वृष्टिजलत्वेन भेदः ज्ञायते. वृष्टिजलत्वम् एव भेदं स्थापयति खलु, संस्थापयति. तत्र प्रतियोगितासु भेदः भेदं किं संस्थापयति? समीचीनम्. अधिकरणे यः धर्मः वर्तते तेन धर्मेण एव प्रतियोगितासु भेदः ज्ञायते इत्येव सारांशः. तदेव अवच्छेदकभावः इति उच्यते. इत्युक्ते धर्मः एव अवच्छेदकः, धर्मे अवच्छेदकता अस्ति. यः अवच्छिद्यते तद् अवच्छेद्यं भवति वा अवच्छेद्यः भवति, तस्मिन् अवच्छेद्यता अस्ति. अग्रे पठेम भगिनी, नो चेत् बहु किमपि अस्ति खलु.
अस्तु अस्तु, धन्यवादः, किन्तु अवगच्छामि.
हा हा अस्तु. एतावत्पर्यन्तं प्रश्नः अस्ति वा?
नास्ति भगिनि, इदानीं
स्पष्टं खलु. अस्तु, अद्यतनवर्गः तु किञ्चित् कथारूपेण आसीत्. अस्तु, धन्यवादः. शुभरात्रिः,
शुभदिनम्.
शुभरात्रिः भगिनी.
आम् आम् वदतु भगिनि.